कौशल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमानिकम् कौशल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमानिकम् उत्तिष्ठो उत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु उत्तिष्ठो उत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु मातः समस्त जगता मधुकैट भारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्री स्वामिनी श्रित जन प्रिय दानशीले श्री वेंकटेश दैते तव सुप्रभातम् मातः समस्त जगता मधुकैट भारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्री स्वामिनी श्रित जन प्रिय दानशीले श्री वेंकटेश दैते तव सुप्रभातम् तव सुप्रभातमरविंद लोचने भवतु प्रसन्न मुख चंद्र मंडले विधिशंकरेन्द्र वनिताभिरचिते वृषशैलनाथ दैते दयानिधे अत्र्यादि सप्तऋषयः समुपास्य संध्याम् आकाश सिंधु कमलानि मनोहरानि आदाय पादयुगमर्चयितुं प्रपन्ना शेषाद्रिशेखर विभो तव सुप्रभातम् पंचाननाब्ज भव षण्मुख वासवाद्या त्रैविक्रमाधिचरितं विबुधास्तु वन्ति भाषापति पठति वासर शुद्धि मारा शेषाद्रिशेखर विभो तव सुप्रभातम् ईषत् प्रफुल्ल सरसीरुह नारिकेल भूगाद्रुमादिसु मनोहर पालिकानाम् आवाति मंदमणिलासह दिव्य गंधै शेषाद्रिशेखर विभो तव सुप्रभातम् उन्मील्य नेत्रयुगमुत्तम पंजरस्था पात्रावशिष्ट कदली फल पायसानि भुक्त्वा सलीलमथ केलि सुखः पटन्ति शेषाद्रिशेखर विभो तव सुप्रभातम् तंत्री प्रकर्ष मधुरस्वनया विपंचा गायन्त्यनन्त चरितं तव नारदोऽपि भाषा समग्रम सकृत चारुरम्यम् शेषाद्रिशेखर विभो तव सुप्रभातम् भृंगावली च मकरंदर सानुवेद्धा झंकार गीत निनदै सह सेवनाय निर्यात्युपंत सरसी कमलोदरेभ्यः शेषाद्रिशेखर विभो तव सुप्रभातम् योषा गणेन वरदाग्नि विमत्यमाने घोषालयेषु दधि मंथन तीव्र घोषाः रोषात् कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखर विभो तव सुप्रभातम् पद्मेश मित्र शत पत्र गताली वर्गा हर्तुं श्रियं कुवलयस्य निजांगलक्ष्म्या भेरी निनादमिव बिभ्रति तीव्रनादम् शेषाद्रिशेखर विभो तव सुप्रभातम् श्रीमन्नभीष्ट वरदा किल लोकबन्धो श्री श्रीनिवास जगदेक दयैक सिंधो श्री देवता गृह भुजांतर दिव्य मूर्ते श्री वेंकटाचलपते तव सुप्रभातम् श्रीमन्नभीष्ट वरदा किल लोकबन्धो श्री श्रीनिवास जगदेक दयैक सिंधो श्रीदेवता गृहभुजां तरदिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीस्वामी पुष्करणिका प्लवनिर्मलाङ्गा श्रेयोर्तिनोहर विरञ्चि सनादध्याः द्वारे वसन्ति वरवेत्र हटोतमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीशेषशैलगरुडाचल वेङ्कटाद्री नारायणाद्रिवृषभाद्रि विषाद्रिमोख्यम् अख्यं त्वदीय वसतेरणि संवदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् सेवा परा शिव सुरेश कृसानुधर्मा रक्षोऽम्भुनाथ पवमान धनादिनाथः बद्धाञ्जली प्रविलसन्निज शीर्ष देशा श्रीवेङ्कटाचलपते तव सुप्रभातम् घाटीषु ते विहगराज मृगाधिराजा नागाधिराज गजराज हयाधिराज स्वस्वाधिकार महिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् सूर्येन्दुभौम बुध वाक्पति काव्य शौरी स्वर्भानुकेतु दिविशत् परिषत् प्रधाना त्वद्दास दास चरमावधि दास दास श्रीवेङ्कटाचलपते तव सुप्रभातम् तत्पादधूलिभरितस्फुरितोत्तमाङ्गा स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गा कल्पागमाकलनयाकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् त्वद्गोपुराग्रशिखराणि निरीक्षमाना स्वर्गापवर्गपदवीं परमां श्रयन्ता मर्त्या मनुष्य भुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीभूविनायक दयादिगुणामृताब्दे देवादिदेव जगदेक शरण्यमूर्ते श्रीमन्ननन्त गरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणि श्रीवत्सचिन्न शरणागत पारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् कन्दर्प दर्पहर सुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुह कुट्मल लोल दृष्टे कल्याण निर्मल गुणाकर दिव्य कीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् मीनाकृते कमठकोल नृसिंहवर्णिं स्वामीं परस्वत तपोधन रामचन्द्र शीशांस राम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् एला लवङ्ग घनसार सुगन्धितीर्थम् दिव्यं वियत्सरितु हेम घटेषु पूर्णम् धृत्वाद्य वैदिक शिखामनयः प्ररिष्टा तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् भास्वानुदेति विकचानि सरोरुहानि सम्पूरयन्ति निनदैककुभो विहङ्गा श्रीवैष्णवा सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कटसुप्रभातम् ब्रह्मा दयासुरवरा समहर्षयस्ते सन्तः सनन्दनमुखास्त्वत योगिवर्या धामान्तिके तव हि मङ्गलवस्तुहस्ता శ్రీ వెంకటాచలపతే తవ సుప్రభాతం. లక్ష్మీనివాస నిరవధ్య గుణైక సింధో సంసార సాగర సముత్తరణైక సేతో వేదాంత వేద్య నిజ వైభవ భక్త భోగ్య శ్రీ వెంకటాచలపతే తవ సుప్రభాతం. ఇత్తం వృషాచలపటేరిహ సుప్రభాతం. యీ మానవః ప్రతిదినం పఠితుం ప్రవృత్తా తేషాం ప్రభాత సమయే స్మృతిరంగభాజాం ప్రజ్ఞాం పరార్థ సులభాం పరమాం ప్రసూతే. ఇత్తం వృషాచలపటేరిహ సుప్రభాతం. యీ మానవః ప్రతిదినం పఠితుం ప్రవృత్తా తేషాం ప్రభాత సమయే స్మృతిరంగభాజాం ప్రజ్ఞాం పరార్థ సులభాం పరమాం ప్రసూతే.